शृङ्गारः इति वक्तुं शक्यते, किन्तु किमस्ति इत्युक्ते यत्र पतिः सः अतः एव इदानीम् एते किं युद्धं कृत्वा सः तान् मारितवान् अस्ति. अतः पुनः शृङ्गारसः नाम कुत्र समागमस्य सम्भावना यत्र भवति तत्र विप्रलम्बशृङ्गारः इति वदन्ति. अत्र सम्भावना एव नास्ति, अतः स्वप्ने एव भवितुम् अर्हति. अतः अत्र तु करुणरसः अग्रे तदेव लिखति, इत्यत्र करुणरसस्य शुद्धस्य अङ्गभावात् स्पष्टमेव रसोदलङ्कारत्वम् इति वाक्यमस्ति. प्रश्नः भूत्वा एवं विधे विषये रसान्तराणां स्पष्टः एव अङ्गभावः, एतादृशविषये अन्येषामपि रसानाम् अङ्गभावः भवितुम् अर्हति, सः स्पष्टः. सङ्कीर्णः रसादिः अङ्गभूतः यथा, तस्य एकम्
क्षिप्तो हस्तावलग्नः गृह्णन् केशेष्वपास्तचरण चरणनिपतितो नेक्षितः सम्भ्रमेण आलिङ्गन् यो वधूतः त्रिपुरयुवतिभिः साशु नेत्रोत्पलाभिः कामी वार्द्रापराधः सदहतु दुरितम् शाम्भवो वश्यराग्निः.
पूर्वं कदाचित् उक्तमासीत् शम्भुः एव रक्षतु विष्णुः रक्षतु इत्येव कथनं न, विष्णोः हस्तः रक्षतु, नखाः रक्षन्तु त्रायन्तं मोमदृपो प्रपन्नार्थिचितो नखाः इत्यस्य किल, भिन्नभिन्न अङ्गानि अस्मान् रक्षन्तु इति स्तोत्रकरणस्य परम्परा अस्ति. अत्र शाम्भवः शराग्निः दुरितं दहतु. शाम्भवः शम्भुसम्बद्धः, ईश्वरसम्बद्धः, शराग्निः बाणे लग्नः अग्निः, अग्निसहितां बाणा तादृशशराग्निः वः दुरितं दहतु, युष्माकं पापं सर्वमपि दहतु, ज्वालयतु इति कविः वदन् अस्ति. प्रकरणमस्ति त्रिपुरदहनम् इति कथा श्रुता अस्ति किल, त्रिपुरराक्षसः त्रीणि पुराणि आकाशमध्ये निर्माय राक्षसाः सर्वान् पीडयन्ति स्म, तद् निवारयितुं केऽपि न शक्ताः. ईश्वरः एकः एव त्रिपुरमथनं कर्तुं शक्नोति, तदर्थं देवाः सर्वेपि साहाय्यं कुर्युः चेदेव. अतः एकैकोऽपि देवः, एकः देवः रथः भवति, विष्णुः प्रायशः बाणः भवति, यक्षगानकथायां स्यात् तत्सर्वम्. एवम् एकैकोऽपि देवः एकं साहाय्यं करोति, एवं भूत्वा सः गत्वा अनन्तरं त्रिपुरमथनं करोति, त्रिपुराणां दहनं करोति. अतः तस्य ईश्वरस्य त्रिपुरदग्ध नाम त्रिपुरारिः, त्रिपुरान्तकः इत्यादि नामानि तस्य सन्ति. सः त्रिपुरनाशनं कर्तुं बाणं प्रयुक्तवान् अस्ति. कीदृशः बाणः? अग्निसहितः बाणः अस्ति, विष्णुः एव बाणः सः. अतः बाणे स्थितः अग्निः, शराग्निः अस्ति किल, सः शराग्निः भवतां पापं हरतु. शाम्भवः शराग्निः युष्माकं दुरितं किं करोतु? दुरितं दहतु, दुरितमपि दहतु इत्येव वदति, ज्वालयतु इत्येव. तत्र सः किं करोति? सः बाणाग्निः अस्ति किल, सः कुत्र पीडयन् अस्ति इदानीम् इति चेत्, त्रिपुरयुवतयः सन्ति किल, ताः युवतीः पीडयति. इत्युक्ते प्रायः त्रिपुराणां संहारः समाप्तः, राक्षसाः हृताः इति मन्ये. इतः परं त्रिपुरयुवतयः सन्ति, त्रिपुरमहिलाः याः सन्ति, तासां विषये अस्य बाणस्य व्यवहारः कथमस्ति, बाणः कथं करोति? कुत्रापि महति भवने अथवा यत्र कुत्रापि आपणेषु अकस्मात् अग्निः लग्नः भवति चेत् अग्निः कथं व्यवहरति? तत् सम्यक् सः वर्णितवान् अस्ति. क्षिप्तो हस्तावलग्नः, सः अग्निः बाणाग्निः हस्ते लग्नः अभवत्. प्रथमं तस्य त्रिपुर युवति जनस्य एकवचन प्रयोग कृता अस्ति त्रिपुर युवति जनस्य हस्ते लग्नः अभवत् कः
अग्निः
शराग्निः बाणाग्निः तदा ताः किं कुर्वन्ति तम् एव क्षिपन्ति नाम अकस्मात् अग्निस्पर्शः भवति एकः स्फुलिङ्गः आगत्य तिष्ठति इति चिन्तयतु वयं किं कुर्मः क्षिपामः अतः हस्तावलग्नः शराग्निः क्षिप्तः क्षिप्तो हस्तावलग्नः अनन्तरं प्रसवम् अभिहतः आददानः अंशुकान्तम् अंशुकान्तम् आददानः अंशुकं नाम वस्त्रं वस्त्रस्य अन्तभागम् आददानः गृह्णन् अग्निः आगत्य वस्त्रस्य अन्तिमभागं कुत्रापि गृह्णाति चेत् किं कुर्मः अंशुकान्तम् आददानः भवति चेत् किं करोति इति चेत् अभिहतः ताडयित्वा अग्निं शमयामः किल वस्त्रस्य कोणे कुत्रापि आगत्य अग्निस्फुलिङ्गः तिष्ठति चेत् वयं पूर्वं ताडनं कृत्वा तस्य शमनं कुर्मः एवम् अंशुकान्तम् आददानः अंशुकान्तं नाम वस्त्रस्य अन्तभागं गृह्णन् सः बाणाग्निः प्रसवं नाम हठात् ताडितः अभिहतः ताडितः प्रसवम् अभिहतः अंशुकान्तम् आददान अनन्तरं गृह्णन् केशेषु अपास्तः सः आगत्य केशेषु कदाचित् उपविशति चेत् स्फुलिङ्गः केशान् स्पृशति चेत् किं करोति अपास्तः दूरीकृतः केशेषु गृह्णन् सः शराग्निः अपास्तः गृह्णन् केशेषु अपास्तः चरणनिपतितः नेक्षितः सम्भ्रमेण कदाचित् आगत्य पादस्य अधः एव पतति किन्तु सम्भ्रमवशात् सम्भ्रम नाम कन्फ्यूशन् इत्युक्ते सम्भ्रमवशात् पादस्य अधः पतितोपि एतादृशः नेक्षितः पादपतितोपि सम्भ्रमवशात् न ईक्षितः न दृष्टः अनन्तरम् आलिङ्गन् अवधूतः स अग्निः आगत्य शरीरम् आलिङ्गितुम् आगच्छति चेत् किं कुर्वन्ति एवम् अवधानं नाम तिरस्कारं कुर्वन्ति अवधूतः तिरस्कृतः गच्छतु इति अग्निं दूरीकर्तुम् इच्छति आलिङ्गन् अपि सः अवधूतः जातः काभिः एतत् सर्वं काभिः कृतम् इति चेत् त्रिपुरयुवतिभिः कीदृशीभिः इति चेत् साश्रुनेत्रोत्पलाभिः पतयः कदास्सन्ति किल अतः नेत्रोत्पलाभ्यः इदानीं नेत्रोत्पलेभ्यः अश्रूणि स्रवन्ति रुदत्यः इत्यर्थः साश्रुनेत्रोत्पलाभिः त्रिपुरयुवतिभिः एवं सर्वं क्रियमाणः सः शराग्निः भवतां सर्वेषां दुरितं दहतु इत्युक्तम् अत्र एकाम् उपमां दर्शयति सः शराग्निः कीदृशः अस्ति इति चेत् आर्द्रापराधः कामी इव कामी वार्द्रापराधः कश्चन कामी कामुकः अस्ति नायकः सः इदमिदानीम् एकम् अपराधं कृत्वा आगतवान् अस्ति एतस्याः नायिकायाः समीपागमनपर्यन्तं तत्पूर्वमेव अन्यत्र कुत्रापि गत्वा वा किमपि आगतवान् अस्ति अतः सः एकम् अपराधं कृतवान् अस्ति कदा बहुपूर्वं न आर्द्रापराधः आर्द्रापराधशब्दः बहु समीचीनः अस्ति इतोपि तत् किं प्रत्यग्रमेव अस्ति तादृशम् आर्द्रापराधः इत्युक्ते एषापि सम्यक् जानाति एवं सर्वं किमपि अकार्यं कृत्वा एव आगतवान् अस्ति इति एषा जानाति अतः आर्द्रापराधः कामी अपि यदि आगच्छति किं कुर्वन्ति इति चेत् क्षिप्तो हस्तावलग्नः आगत्य हस्तं गृह्णाति चेत् हस्ते लग्नः भवति चेत् किं क्रियते क्षिप्तः भवति हस्ते लग्नोऽपि क्षिप्तः भवति अंशुकान्तम् आददानः वस्त्रस्य अन्तं गृह्णाति चेत् तदा ताडितः भवति अंशुकान्तम् आददानः अपि ताडितः इदानीं तद् बाणः किं किं कुर्वन् अस्ति तद्विस्मरन्तु इदानीं कश्चन नायिकः एतस्याः वस्त्रं गृह्णन् अस्ति सा ताडयति अंशुकान्तम् आददानः अपि सम्यक् अभिहतः हठात् ताडितः तादृशः केशेषु गृह्णन् अपास्तः केशान् गृहीतुम् आगच्छति चेत् दूरीकरोति केशेषु गृह्णन् अपास्तः चरणनिपतितः मम दोषः अभवत् क्षम्यताम् इति चरणनिपातं करोति चेदपि एषा सम्भ्रमोषा तं न पश्यति ఆలింగన్ అవధూతః ఆలింగితుం ఆగచ్చతి చేత్ తదానీమపి ఏషతం తిరస్కరోతి ఏవం జాతః ఆర్ద్రాపరాధః కామీ ఇవ విద్యమాన శాంభవ శరాగ్నిః యుష్మాకం దురితం దాతు. అంశద్వయం అస్తి, ఏకం తో శాంభవ శరాగ్ని సహ కథం వ్యవహారం కరోతి ఇతి సర్వం వర్ణితమస్తి. ద్వితీయమస్తి ఆర్ద్రాపరాధ కామి, ద్వయోరపి వ్యవహార సమానం అస్తి. అత్ర అంశద్వయం అస్తి, తదే వాక్యే లిఖతి. ఇత్యత్ర త్రిపుర రిపు ప్రభావాతిశయస్య వాక్యార్థత్వే, అత్ర ప్రధానః వాక్యార్థః కః ఇతి చేత్, త్రిపురమథనః అస్తి కిల ఈశ్వరః, తస్య ప్రభావాతిశయ వర్ణనమేవ ప్రధానం. అన్యత్ సర్వం అప్రధానం, యద్యపి అన్యత్ అస్తి, కింద ప్రధానవాక్యార్థ కః ఇతి చేత్, త్రిపుర రిపు ప్రభావ అతిశయస్య వాక్యార్థత్వే తస్యైవ ప్రాధాన్యం. తత్ర ఈర్ష్యా విప్రలంబస్య శ్లేష సహితస్య అంగభావః. ఈర్ష్యా విప్రలంబః, తత్ర విప్రలంబ శృంగారః అస్తి శృంగారసస్య విభాగేషు, ఈర్ష్యా విప్రలంబః ఇత్యేకः అస్తి. తస్య ఈర్ష్యా విప్రలంబస్య శ్లేష సహితస్య, అత్ర శ్లేష ద్వారా అర్థద్వయం అస్తి కిల, బాణ విషయే ఏకః వ్యవహారః, కామినః కామినః విషయే అన్యః వ్యవహారః, ఏం శ్లేషద్వయ సహితమస్తి, అర్థద్వయ సహితమస్తి, అతః శ్లేష సహితస్య అంగభావః. అతః అత్ర ప్రధానే వాక్యార్థే ఈర్ష్యా విప్రలంబః అలంకారద్వయం, ఈర్ష్యా విప్రలంబః ఇవ తస్య పునః అర్థద్వయం అస్తి శ్లేషముఖాత్, అతః శ్లేషముఖా శ్లేషసహితస్య అంగభావః. ఇత్యేవం విధః ఇవ విషయః రసవదలంకారస్య న్యాయినః. ఏతాదృశ విషయాః ఇవ రసవదలంకారస్య ఉదాహరణాని ప్రతిపాదయంతి.
ఇదిలో ముఖ్య అర్థం ఏమదు?
త్రిపురమథనస్య ఈశ్వరస్య ప్రభావాతిశయ వర్ణనం సహ ముఖ్యాంశం. తత్ర అన్యత్ కిమపి వదతు, ఇదనీ ఈ శివసహస్రనామ వదతి చేత్ తత్ర యత్కిమపి వదతు, తాత్పర్యం తు శివస్య మహిమాతిశయ వర్ణనమేవ. మహారాజస్య వర్ణనం కరోతి చేత్ తదేవ ప్రధానం, తస్య అంగరూపేణ యత్కిమపి కథయతు నామ. తత్ర ఈర్ష్యా విప్రలంబః తస్య అంగరూపేణ అస్తి, తస్య పునః అర్థద్వయం అస్తి, శుద్ధే అర్థద్వయం న, ఏక ఏ అర్థ అస్తి, అత్ర శ్లేష అస్తి, అర్థద్వయ సహితమస్తి, అతః సంకీర్ణం ఇత్యస్య ఏతత్ ఉదాహరణం. చతమా హా, అత్ర ఈర్ష్యా విప్రలంబన కరుణోపి అస్తి, అగ్రిమవాక్య అస్తి, ఈర్ష్యా విప్రలంబ కరుణ. అత ఏవ చ ఈర్ష్యా విప్రలంబ కరుణయోః అంగత్వేన వ్యవస్థానాత్ సమావేశో న దోషః. అత్ర ఈర్ష్యా విప్రలంబః అస్తి, ఇదనీ ఆర్ద్రాపరాధస్య కామినః విషయే కామినః ఏ వ్యవహారాః సంతి తేషాం వర్ణన సమయే కః రసః ఇతి చేత్, ఈర్ష్యా విప్రలంబః తమా విప్రలంబ శృంగారః ఏవ, కుపితాయాః నాయికాయాః సాంత్వనం కర్తుం సహ ప్రయత్నం కుర్వన్ అస్తి, సా అధిక్షిపంతి అస్తి, శృంగారసః ఏష. తదేవ త్రిపురమథనస్య వర్ణనం చేత్, రాక్షసాశ్రమే మృతాః సంతి, ఇదానీం క్షరాగ్నిః గత్వా త్రిపుర నారీ పీడయతి, తద్వర్ణనంతో కరుణరసస్య వర్ణనం. అతః ఈర్ష్యా విప్రలంబ కరుణయోః అంగత్వేన వ్యవస్థానాత్ సమావేశః న దోషః. తత్ర అన్యత్ర కావ్య దోషాః ఏ భవంతి, తత్ర బహువిధాః దోషాః దర్శితాః భవంతి. తత్ర ఏకః ముఖ్య దోషః కావ్య దోషః కా ఇతి చేత్, విరుద్ధయోః రసయోః ఏకత్ర సమావేశః న కరణీయః. విరుద్ధయోః రసయోః ఏకత్ర సమావేశః న కరణీయః ఇది ఏకః నియమః అస్తి. ఇత్యుక్తే కేషాంచిత్ రసానాం పరస్పరం విరోధః అస్తి. ఉదాహరణార్థం శృంగారసః కరుణరసః, అథవా శృంగారసః ఎతదస్తి కిల కిం శాంతిః కిం శమప్రదానః శాంతరసః, తయోర్మధ్యే వస్తుతః విరోధః అస్తి. అతః తత్ర ఏకత్ర ఏకం ఉదాహరణమపి దర్శయతి, శృంగారరసకథనసమయే తాదృశమేవ వక్తవ్యం, एकः वदन् अस्ति कुत्रापि वाक्यमासीत् मानं मा कुरु तन्वङ्गे ज्ञात्वा यौवनमस्थिरम् इति वदन् आसीत् पत्नी कोपं न करोतु किमर्थम् इत्युक्ते यौवनम् अस्थिरं श्वः वयं जीवामः वा न वा वयं वृद्धाः भवेम इति शृङ्गारसमये सः वैराग्यस्य वर्णनं कुर्वन् अस्ति एतद् रसविरोधित्वम् इति कथ्यते इत्युक्ते विरुद्धयोः रसयोः समावेशः एकत्र न करणीयः शृङ्गारस्य अनन्तरं वैराग्यस्य नाम शान्तरसस्य उदाहरणं दर्शितवान् एवमेव अस्मिन् पद्ये एकस्मिन्नेव पद्ये शृङ्गाररसस्य तद्विरोधिनः करुणरसस्यापि समावेशः कृतः अस्ति अतः का विदोषः जातः किल इति भवन्तः पृच्छेयुः तस्य उत्तरं वदति तदेव प्रधानः वाक्यार्थः अन्यः अस्ति अङ्गी अन्यः अस्ति तत्र अङ्गत्वेन परस्परविरोधयोरपि रसयोः समावेशः कर्तुं शक्यते कश्चन प्रधानः अस्ति चेत् तत्र अङ्गरूपेण विरुद्धयोः रसयोरपि समावेशः कर्तुं शक्यते लोकेपि तथैव किल कदाचित् किं समबलयोः द्वयोर्मध्ये कलहः भवति चेत् परस्परं कलहः क्लेशः एव किन्तु ज्येष्ठः अस्ति चेत् सः पश्यति अकस्मात् कलहः भवति चेदपि सः समाधानं कर्तुं शक्नोति सः मुख्यः अस्ति सः तद्वत् अत्र अङ्गीरसः कश्चन अस्ति रसः वा वाक्यार्थः अत्र तु त्रिपुरारि तस्य प्रभावातिशयः इति मुख्यः वाक्यार्थः तस्मिन् वाक्यार्थे परस्परविरुद्धौ अपि एषौ रसौ शृङ्गारः करुणरसः एषौ एतौ समावेशितौ इति कृत्वा न दोषः अस्य वाक्यस्य सः अतः एव च ईर्ष्याविप्रलम्भकरुणयोः अङ्गत्वेन व्यवस्थापना द्वयमपि अङ्गरूपेण व्यवस्थापितमस्ति तस्मात् तयोः समावेशः न दोषः अन्यथा दोषः स्यात् यत्र हि रसस्य वाक्यार्थी भावः तत्र कथम् अलङ्कारत्वम् तर्हि एकः प्रश्नः उत्पन्नः यत्र हि रसस्य वाक्यार्थी भावः कश्चन रसः रसः एव वाक्यार्थरूपेण तिष्ठति चेत् तस्य अलङ्कारत्वं कथम् आगच्छति यत्र रसस्यैव वाक्यार्थी भावः अस्ति रसस्यैव वाक्यार्थी भावः अस्ति तत्र अलङ्कारत्वं कथं सम्भवति रसः अस्ति इत्युक्ते तस्य अलङ्कारत्वं कथं सम्भवति इति अलङ्कारो हि चारुत्वहेतुः प्रसिद्धः किमर्थम् इत्युक्ते अलङ्कारः किं करोति इति चेत् चारुत्वं जनयति सौन्दर्यं जनयति न तु असौ आत्मैव आत्मनः चारुत्वहेतुः आत्मा एव आत्मनः सौन्दर्ये कारणं न भवति शरीरस्य सौन्दर्ये कटककुण्डलादिकं सर्वमपि कारणं भवितुम् अर्हति आत्मा एव आत्मनः सौन्दर्यं न जनयति आत्मा एव आत्मनः सौन्दर्यं न जनयति आत्मा एव आत्मनः चारुत्वहेतुः भवितुम् अर्हति अतः कथम् इति प्रश्नः भवति अतः उपसंहारं करोति रसभावादितात्पर्यम्
आश्रित्य विनिवेशनम् अलङ्कृतीनां सर्वासाम् अलङ्कारत्वसाधनम्
अलङ्काराणाम् अलङ्कारत्वं कथं सिद्ध्यति इति चेत् रसभावादितात्पर्यमाश्रित्य विनिवेशनम् रसमेव मुख्यं कल्पयित्वा निवेशनं रसभावादि रसं भावं रसाभासं भावावासम् इत्यादिकं रसभावम् आश्रित्य यत्र अलङ्कृतीनां विनिवेशनं क्रियते इत्युक्ते प्राधान्यं कस्य इति चेत् रसस्यैव रसभावादीनां तात्पर्यम् आश्रित्य यत्र अलङ्कृतीनां निवेशनं क्रियते तदेव अलङ्काराणाम् अलङ्कारत्वसाधनं तथा क्रियते चेदेव अलङ्काराः अलङ्काराः इत्युच्यन्ते. इत्युक्ते अलङ्कारः ध्वनिः भवितुं नार्हति वा इति चेत् भवितुम् अर्हति, कुत्रचित् भवितुम् अर्हति. यत्र अलङ्कारस्यैव प्राधान्यं भवति सोपि भवितुम् अर्हति. किन्तु सामान्यतः सर्वत्रापि अलङ्कारस्य अलङ्कारत्वं कदा सिद्ध्यति इति चेत् रसतात्पर्यं भावतात्पर्यं मनसि निधाय तदानुगुण्येन यत्र अलङ्कृतीनां निवेशनं क्रियते तत्र अलङ्काराणाम् अलङ्कारत्वं सिद्ध्यति. रसभावादितात्पर्यम् आश्रित्य अलङ्कृतीनां सर्वासां निवेशनम्, अलङ्कृतीनां नाम अलङ्काराणां निवेशनं निबन्धनं यत्र क्रियते तदेव अलङ्कारत्वसाधनं, तदा एव तेषाम् अलङ्कारत्वं सिद्ध्यति. तस्मात् यत्र रसादयः वाक्यार्थीभूताः सः सर्वः न रसादेः अलङ्कारस्य विषयः. अतः स्मरन्तु पूर्वम् उक्तम् एकवारम् यत्र रसादयः वाक्यार्थीभूताः, रसादयः एव मुख्याः. वाक्यार्थीभूताः इत्युक्ते मुख्यार्थभूताः. रसादयः एव वाक्यार्थीभूतः सः सर्वः रसादेः अलङ्कारस्य विषयः न. रसादि अलङ्कारस्य विषयः कः? अन्यः वाक्यार्थः रसः अङ्गरूपेण तिष्ठति. इदानीं किं वदन्नस्ति? यत्र रसादयः एव वाक्यार्थीभूतः तत्र तु रसादेः अलङ्कारस्य विषयः न, सः ध्वनेः प्रभेदः. तत्र ध्वनि ध्वनेरेव उदाहरणं तद् भवति. तस्य उपमादयो अलङ्काराः. उपमादयस्तु तद् प्रधानीभूतस्य तस्य. तत्र उपमादयः भवन्ति चेत् उपमादयः प्रधानीभूतस्य रसस्य अलङ्कारभूताः भवन्ति इति कृत्वा ते अलङ्काराः इत्युच्यन्ते. तस्य उपमादयः अलङ्काराः. तस्य प्रधानस्य अर्थस्य एते उपमादयः अलङ्काररूपाः भवन्ति. अलङ्कारः आभरणरूपाः. तस्य नाम प्रधानवाक्यार्थस्य. प्रधानवाक्यार्थः कः? रसादिः इत्युक्तमस्ति. अतः प्रधानवाक्यार्थस्य एते उपमादयः अलङ्काराः अलङ्कारभूताः तिष्ठन्ति. यत्र तु प्राधान्येन अर्थान्तरस्य वाक्यार्थीभावे रसादिभिः चारुत्वनिष्पत्तिः क्रियते सः रसादेः अलङ्कारतायाः विषयः. यत्र प्राधान्येन अर्थान्तरस्य वाक्यार्थीभावे अन्यः एव अर्थः वाक्यार्थत्वेन तिष्ठति, अन्यः नाम रसादिः न. तत्र रसादिभिः चारुत्वनिष्पत्तिः. तत्र रसस्यापि योजनं कृतमस्ति इति कारणतः किञ्चित् चारुत्वं भवति, किन्तु प्रधानः वाक्यार्थः अन्यः एव. यत्र एवं तिष्ठति तत्र सः रसादेः अलङ्कारस्य विषयः. अतः साक्षात् भिन्नं भिन्नमेव अभवत्. एवं ध्वनेः उपमादीनां रसवदालं अलङ्कारस्य च विभक्तविषयता भवति. अतः उपमादीनाम् अलङ्काराणां रसाद्यलङ्काराणां ध्वनेश्च विषयः भिन्नः भिन्नः एव भवति, विभक्तविषयता भवति इत्युक्ते. इदानीं पुनः एकं वाक्यार्थम् आरभते, किञ्चिदिव चिन्तनं किम् इति चेत् यदि तु चेतनानां वाक्यार्थीभावः रसाद्यलङ्कारस्य विषयः इत्युच्यते. केचन जनाः वदन्ति इति चेतनानां वाक्यार्थीभावः. इदानीं चेतनाः अचेतनाः इति वयं वदामः किल, मनुष्याः सर्वेपि चेतनाः, मेघाः वृक्षाः लताः अपि अचेतनाः इति अस्मिन् अवसरे कथ्यते. तेषां सर्वेषां व्यवहारः अचेतनव्यवहारः, अस्माकं व्यवहारः चेतनव्यवहारः. चेतनानां वाक्यार्थीभावः रसाद्यलङ्कारः. केचन वदन्ति चेतनानां व्यवहारः यः उच्यते सः एव वाक्यार्थीभूतः भवति चेत् सः रसादिः अलङ्कारः. केषाञ्चित् कथनम् इत्युक्ते नुन्यालोककारस्य एतदङ्गीकृतं न. केचन किं वदन्ति इति चेत् चेतनानां वाक्यार्थीभावः रसाद्यलङ्कारस्य विषयः, चेतनानां व्यवहारः एव यत्र अस्ति तत्र साध्यलङ्कारः इति उच्यते चेत् तदा उपमादीनां प्रविरलविषयता निर्विषयता वा अभिहिता स्यात् तथा वदति चेत् उपमालङ्कारः इति दीयते चेत् तत्र सर्वत्र अचेतनत्वमेव आगतम् इदानीं चन्द्रः मुखं चन्द्रः इव अस्ति चन्द्रः स्वीकृतः अथवा मुखं कमलमिव अस्ति इति कमलं स्वीकृतम् एतानि सर्वाणि अचेतनानि एवम् अचेतनानां व्यवहारः यत्र यत्र आगतः तत्र सर्वत्र ध्वनिः इत्युक्तं भवति किं वदनस्ति एषः चेतनानां वाक्यार्थीभावे रसाद्यलङ्कारः रसादिः अलङ्कारः अचेतनानां व्यवहारे ध्वनिः इत्युक्तं चेत् तर्हि उपमा इत्यादीनां विषयः एव नास्ति प्रविरलविषयः उपमायाः विषयः अत्यन्तं विरलः भवितुमर्हति प्रविरलविषयः वा निर्विषयः वा उदाहरणमेव न लभ्यते उपमायाः विषयः एव नास्ति इति वा भवितुमर्हति निर्विषयः वा अभिहिता स्यात् अभिहिता उक्ता तथा उक्तं भवति यत्र अचेतनव्यवहारः अस्ति तत्र सर्वत्र किं ध्वनिः इति वदामश्चेत् तर्हि उपमादीनाम् अलङ्कारस्य विषयः एव न लभ्यते इति वदामः यस्मात् अचेतनवस्तुवृत्तान्ते वाक्यार्थीभूते पुनः चेतनवस्तुवृत्तान्तयोजनया यथा कथञ्चित् भवितव्यम् अथवा यद्यपि अचेतनवृत्तान्तः वर्णिते तत्रापि चेतनव्यवहारः कथमपि योजनीयः इति कृत्वा कथमपि किमपि करणीयं भवेत् एतस्य वाक्यस्य तात्पर्यं तथा यद्यपि अचेतनस्य वर्णनं क्रियते तत्रापि चेतनत्वम् आरोप्य कथमपि सङ्गमनं करणीयं भवेत् इति अथ सत्यामपि तस्यां यत्र अचेतनानां वाक्यार्थीभावः नासौ रसवदलङ्कारस्य विषयः इत्युच्यते वयं किं वदामः इति चेत् सत्यामपि तस्यां नाम अचेतने चेतनवस्तुवृत्तान्तयोजनायां सत्यामपि अचेतने चेतनस्य वस्तुनः वृत्तान्तं यदि योजयति तर्हि अपि वाक्यार्थीभावः भवति चेत् असौ रसवदलङ्कारस्य विषयः न इत्युच्यते तथा योजयामश्चेदपि रसवदलङ्कारस्य विषयः न इत्युच्यते तत् महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्वम् अभिहितं स्यात् तथा वदति चेत् महाकाव्यानि सर्वाणि नीरसानि इत्युक्तानि भवितुमर्हति कथम् इति चेत् अचेतने चेतनस्य व्यवहारः इति तु सर्वत्र अस्ति एव तद् ध्वनित्वेनापि सर्वत्र अङ्गीकृतमेव इत्युक्त्वा उदाहरणद्वयं दर्शयति एतत् किञ्चित् भ्रमं जनयति मम दृष्ट्या एतत् तत्र आवश्यकमेव नासीत् चेतनम् अचेतनम् इत्यादि सर्वं तथापि वदति यथा एकम् उदाहरणं दर्शयति अचेतनवर्णनम् अचेतनस्य अचेतनवस्तूनि अपि चेतनव्यवहारस्य वर्णनं तस्य एकम् उदाहरणं दर्शयति तरङ्गभ्रूभङ्गा
तरङ्गभ्रूभङ्गा
क्षुभितविहगश्रेणिरशना
क्षुभितविहगश्रेणिरशना विकर्षन्ति फेनम् वसनमिव संरम्भशिथिलम् यथाविद्धं याति स्खलितमभिसन्धाय बहुशो नदीरूपेणेयम् ध्रुवमसहना सा परिणता
नायिका नायिकसमीपम् आगतवती आसीत् केनापि कारणेन कुपिता अस्ति सा कोपेन सा प्रतिनिवर्तमाना अस्ति गच्छन्ती अस्ति सा तां दृष्ट्वा इयं नायिका इदानीं ध्रुवं निश्चयेन नदीरूपेण परिणता नदी यथा प्रवहति तथा इयं गच्छन्ती अस्ति इति वदन् अस्ति नदीरूपेण इयम् असहना नायिका इयं नदीरूपेण परिणता अस्ति नदी यथा गच्छति तथा इयं गच्छन्ति अस्ति तर्हि नद्यां किं किं भवति इति चेत् तत्र तरङ्गाः भवन्ति अनन्तरं पक्षिणः तत्र शब्दं कुर्वन्तः भवन्ति अनन्तरं फेनं भवति एवं सर्वं भवति तत् सर्वम् अस्यां नायिकायां कथम् अस्ति इति चेत् तद्योजयति तरङ्गभ्रूभङ्गाः तरङ्गाः नद्यां सन्ति एतस्यां नायिकायां भ्रूभङ्गाः एव तरङ्गाः तरङ्गाः भ्रूभङ्गाः तरङ्गभ्रूभङ्गा नदीव इयं नायिका तरङ्गभ्रूभङ्गा अनन्तरं क्षुभितविहगश्रेणिरसना रशना इति शब्दः उत्तमः रशना
षकार
सा इत्यस्ति क्षुभिताः विहगाः विहगाः पक्षिणः नद्यां वर्तमानाः विहगाः क्षुभिताः भवन्ति चेत् शब्दं कुर्वन्तः भवन्ति तद्वद् एषापि रशनां धृतवती अस्ति मेखलां धृतवती अस्ति कटि आभरणं धृतवती अस्ति रशना इति नाम सा रशना मेखला शब्दं कुर्वती अस्ति यथा नद्यां क्षुभिताः विहगाः शब्दं कुर्वन्ति तथा अस्यां नायिकायां रशना शब्दं कुर्वती अस्ति अतः क्षुभितविहगश्रेणिः एव अत्र रशनारूपेण अस्ति अनन्तरं विकर्षन्ति फेनं वसनमिव तत्र फेनं भवति फेनं नदी गच्छन्ति फेनं कर्षन्ति गच्छति एषा तथा किं कर्षति इति चेत् विकर्षन्ति वसनं फेनमिव वसनं विकर्षन्ति अस्ति स्वकीयवस्त्रमिव आकर्षन्ति गच्छन्ति अस्ति विकर्षन्ति वसनमिव फेनम् अनन्तरं तत् कथं संरम्भशिथिलं सम्भ्रमवशात् वस्त्रं शिथिलं जायमानमस्ति तद् आकर्षन्ति एवं गच्छन्ति अस्ति यथाविद्धं याति स्खलितमभिसन्धाय बहुशः यथाविद्धं नाम सकीलितम् इति लिखति यथाविद्धम् इत्यस्य यथाविद्धं स्खलितमभिसन्धाय बहुशः स्खलितं गमनसमये स्खलनं भवति किल नद्याः गमनसमये तत्र तत्र गर्ते स्खलनं भवति तादृशस्खलितमपि अभिसन्धाय नाम अविचिन्त्य पतामि इति चिन्तामपि अकृत्वा अभिसन्धाय गच्छन्ती अस्ति असामाना मालिनी इयं गच्छन्ती अस्ति स्खलितमपि अभिसन्धाय बहुशः याति नदीरूपेण इयं याति अत्र वस्तुतः चेतनस्य वर्णनं करणीयं प्रस्तुतमस्ति नायिकायाः वर्णनं किन्तु सा नायिका कथं रूपेण गच्छन्ती अस्ति इति चेत् नदीरूपेण नद्याः चेतनं नास्ति अतः अचेतना नदी सो अचेतन चेतनाचेतनयोः अत्र मिश्रणं कृतमस्ति इति एकम् उदाहरणम् अत्र बहु चिन्ता करणीया नास्ति
भवत्येव
तत् अतः तथा वक्तव्यम् इत्येव अन्यदपि एकम् उदाहरणं दर्शयति उदाहरणद्वयं दर्शयति एकं
पश्यामः
द्वितीयम् उदाहरणमस्ति तन्वी मेघजलार्द्रपल्लवतया
तन्वी मेघजलार्द्रपल्लवतया
धौताधरे वाश्रुभिः
शून्येवाभरणैः स्वकालविरहात् विश्रान्तपुष्पोद्गमा चिन्तामौनमिवाश्रिता मधुकृतां शब्देर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा
अत्रापि तथैव नायिका अत्यन्तं कुपिता अस्ति सा कीदृशी नायिका इति चेत्
चण्डी
चण्डस्तत्यन्तकोपनः चण्डः नाम अतीवकोपशीलः एषा तु चण्डी अस्ति अतः सा चण्डी काचित् नायिका अस्ति सा किं कुर्वती अस्ति इति चेत् पादपतितं माम् अवधूय अहं क्षम्यतामिति पादग्रहणं कृतवान् तादृशमपि मां तिरस्कृत्य अवधूय इदानीं जातानुतापा इव ओ एवं न करणीयमासीत् इति अनुतापः तस्याम् उत्पन्नः इव दृश्यते कथं सा अस्ति इति चेत् सा नायिका काचित् लता इव अस्ति लता इव अस्ति कीदृशी लता इव इति चेत् तन्वी मेघजलार्द्रपल्लवतया ಧೌತಾಧರೇವ ಅಶ್ರುಭಿಃ ಅಶ್ರೂಣಿ ನಿಪತಂತಿ ಸಂತಿ ಕುತ್ರ ಅಧರಾಣಾಂ ಉಪರಿ ಅಧರಯೋ ಉಪರಿ ಅಶ್ರುಬಿಂದವ ಪುನಃ ಪುನಃ ನಿಪತಂತಃ ಸಂತಿ ತೇನ ತಸ್ಯಾ ಅಧರ ಧೌತಃ ಧೌತಃ ಕ್ಷಾಲಿತಃ ಕ್ಷಾಲಿತಃ ಧೌತಃ ಇತ್ಯುಕ್ತೆ ಪುನಃ ಪುನಃ ಬಾಷ್ಪ ಜಲ ಪತನೇನ ಅಧರ ಕ್ಷಾಲಿತಃ ಇವ ಜಾತಃ ಅಸ್ತಿ ಅತಃ ಅಶ್ರುಭಿಃ ಧೌತಾಧರ ಇವ ಅಸ್ತಿ ಸಾ ಕಥಮಿವ ಅಸ್ತಿ ಇತಿ ಚೇತ್ ಮೇಘಜಲಾರ್ದ್ರಪಲ್ಲವತಯಾ ಕಾಚಿತ್ ಲತಾ ಅಸ್ತಿ ಲತಾಯಾಹ ಉಪರಿ ಮೇಘಜಲಂ ಪುನಃ ಪುನಃ ನಿಪತತ್ ಅಸ್ತಿ ಅತಃ ಮೇಘಜಲೇನ ಆರ್ದ್ರಂ ಜಾತಂ ಇತಿ ಕೃತ್ವಾ ತಸ್ಯಾಹ ಪಲ್ಲವಾಹ ಸರ್ವೇಪಿ ಆರ್ದ್ರಾಹ ಜಾತಾಹ ಸಂತಿ ಪಲ್ಲವ ಚಿಗುರು ಅತಃ ಮೇಘಜಲಾರ್ದ್ರಪಲ್ಲವತಯಾ ಮೇಘಾ ಮೇಘಜಲೇನ ಪಲ್ಲವಾ ಸರ್ವೇಪಿ ಆರ್ದ್ರಾಹ ಜಾತಾಹ ಇತಿ ಕಾರಣತಃ ಯಾ ಲತಾ ಅಸ್ತಿ ಆರ್ದ್ರ ಅಸ್ತಿ ತತ್ ಸದೃಶಿ ಮೇಘಜಲಾರ್ದ್ರ ಪಲ್ಲವತಯ ತದ್ವದೇವ ಧೌತಾಧರೇವ ಅಶ್ರುಭಿಃ ಧೌತಾಧರ ಇವ ಇಯಂ ನಾಯಿಕಾ ಅಸ್ತಿ ಅನಂತರ ಶೂನ್ಯೇವಾಭರಣೈಃ ಆಭರಣೈಃ ಶೂನ್ಯ ಇದಾನೀಂ ಕೋಪಸ್ಯ ಕಾಲ ಆಗಿಲ್ಲ ಅತಃ ಸ ಅಶ್ರು ಆಭರಣಾನಿ ಸರ್ವಾಣಿ ಪರಿತ್ಯಜ್ಯ ಸ್ಥಿತವತಿ ಅಸ್ತಿ ರಾಮಾಯಣೆ ಯದಾ ಕೈಕೇಯ ಕೋಪಃ ಭವತಿ ಸ ಕೋಪಗೃಹಂ ಪ್ರವಿಶತಿ ಕಿಲ ಸರ್ವಾಣಿ ಆಭರಣಾನಿ ಕ್ಷಿಪ್ತ್ವಾ ಆಭರಣಾನಿ ವಿನಾ ತಿಷ್ಠತಿ ತಯೋವೈವ ಕೋಪಃ ಕಾಲ ಇತಿ ಕೃತ್ವಾ ಆಭರಣೈಃ ವಿನಾ ಇವ ಏಷ ಶೂನ್ಯ ಆಭರಣೈಃ ಶೂನ್ಯ ಅಸ್ತಿ ಸ ಕಥಂ ಲತಾಪಿ ಆಭರಣೈಃ ವಿನಾ ನಮ್ಮ ಲತಾಯಾಮ ಆಭರಣಾನಿ ಕಾನಿ ಭವಂತಿ ವಸ್ತುತಃ ಪುಷ್ಪಾಣಿ ಭವಂತಿ ಅತ್ರ ಸ್ವಕಾಲ ವಿರಹಾತ್ ವಿಶ್ರಾಂತ ಪುಷ್ಪೋದ್ಗಮ ಸರ್ವದಾ ಲತಾಯಾಂ ಪುಷ್ಪಾಣಿ ಭವಂತಿ ಇತಿ ನ ತತ್ತಸ್ಯ ಪುಷ್ಪಸ್ಯ ಸಹ ಸಹ ಕಾಲಃ ಇತಿ ನಿರ್ಧಾರಿತಃ ಭವತಿ ತಸ್ಮಿನ್ ಕಾಲೇ ತಾನಿ ಪುಷ್ಪಾಣಿ ಪುಷ್ಪ್ಯಂತಿ ಇದಾನೀಂ ವಯಂ ಕಿಮಪಿ ಕಿಮಪಿ ಕೃತ್ವಾ ಸರ್ವದಾಪಿ ಪುಷ್ಪ್ಯಂತಿ ತಥಾ ಕುರ್ಮಃ ಕಿಂತು ವಸ್ತುತಃ ಸ್ವಕಾಲ ವಿರಹಾತ್ ಸ್ವಸ್ಯ ಉಚಿತಃ ಯಃ ಕಾಲಃ ಅಸ್ತಿ ತಸ್ಯ ಕಾಲಸ್ತಿ ವಿರಹಾತ್ ವಿಶ್ರಾಂತ ಪುಷ್ಪೋದ್ಗಮ ಪುಷ್ಪಾಣಾಂ ಬಹಿರಾಗಮನ ಇದಾನೀಂ ವಿಶ್ರಾಂತಮಸ್ತಿ ಪುನಃ ಆಗಾಮ ವರ್ಷ ಆಗಂತು ಬರಹತಿ ಅತಃ ಸ್ವಕಾಲ ವಿರಹಾತ್ ವಿಶ್ರಾಂತ ಪುಷ್ಪೋದ್ಗಮ ಲತಾ ಇವ ಶೂನ್ಯ ಆಭರಣ ಇಯಂ ನಾಯಿಕಾ ಅಸ್ತಿ ಅನಂತರ ಚಿಂತಾ ಮೌನಮಿವಾಶ್ರಿತ ಮಧುಲಿಹಾಂ ಶಬ್ದೈ ವಿನಾ ಲಕ್ಷ್ಯತೆ ಯದಾ ಪುಷ್ಪಾಣಿ ಬಹೂನಿ ಭವಂತಿ ತತ್ರ ಮಧುಲಿಹ ಆಗಚ್ಛಂತಿ ಮಧುಲಿಹ ಭ್ರಮರಾಹ ಆಗತ್ಯ ಶಬ್ದಂ ಕುರುವಂತಃ ಭವಂತಿ ಇದಾನಿ ಪುಷ್ಪಾಣಿ ಏವ ನ ಸಂತಿ ಅತಃ ಮಧುರಿಹಾಂ ಶಬ್ದೈಹಿ ವಿನಾ ಸಾಲತಾ ದೃಶ್ಯತೆ ಅತ್ರ ಏಷ ಚಿಂತಾ ಮೌನಂ ಆಶ್ರಿತ ಚಿಂತೆಯ ಇದಾನಿ ಮೌನಂ ಆಶ್ರಿತವತಿ ಅಸ್ತಿ ಇತ್ಯುಕ್ತೆ ಕೋಪೇನ ಎದ್ದಿದ್ ಕರಣೀಯಂ ಸರ್ವಂ ಕೃತಂ ತರ್ಜನಂ ಸರ್ವಂ ಸಮಾಪ್ತಮಸ್ತಿ ಅನಂತರಂ ಸಹ ಪಾದ ಪತಿತ ತಿರಸ್ಕಾರ ಕೃತವತಿ ಅನಂತರ ಮೌನೇನ ಉಪವಿಷ್ಟ ಇದಾನಿ ಕಿಂ ಕರೋಮಿ ಅನುತಾಪ ಜಾಯಮಾನ ಅಸ್ತಿ ತಚ್ಚಿಂತಾ ಮೌನಂ ಆಶ್ರಿತ್ಯ ಉಪವಿಷ್ಟ ಏಷ ಅಸ್ತಿ ಅತ್ರ ಚಿಂತಾ ಮೌನಂ ಆಶ್ರಿತ ಇವ ಮಧುಲಿಹಾಂ ಶಬ್ದೇನ ಏಂ ಲಕ್ಷ್ಯತೆ ಚಂಡೀ ಮಾಂ ಅವಧೂಯ ಪಾದಪತಿತಂ ಜಾತಾನುತಾಪೇವ ಸ ಅಸ್ಮಿನ್ ಪದ್ಯೆ ಲತಾ ಇತಿ ಶಬ್ದಃ ಕುತ್ರಾಪಿ ಪ್ರಯುಕ್ತಃ ನಾಸ್ತಿ ಲತಾ ಇವ ವರ್ತಮಾನ ನಾಯಿಕಾ ಇತಿ ಲತಾಯಾಃ ವ್ಯವಹಾರಸ್ಯತೆ ಇತಿ ಉಕ್ತಾ ಸಂತಿ ಅಸ್ಮಿನ್ನಪಿ ಪದ್ಯೆ ಕುಪಿತಾಯಾಹ ನಾಯಿಕಾಯಾಹ ವರ್ಣನಮಸ್ತೆ ಚೇತನಾಯ ಸಾ ಕಥಮಸ್ತಿ ಇತಿ ಚೇತ್ ಅಚೇತನಾ ಕಾಚಿತ್ ಲತಾ ಇವ ಅಸ್ತಿ ಅತಃ ತಯೋ ಚೇತನಾ ಚೇತನಯೋಃ ವ್ಯವಹಾರ ಅತ್ರ ಮಿಶ್ರಿತಃ ಅಸ್ತಿ ಇತಿ ತಸ್ಯ ಉದಾಹರಣ ದರ್ಶಿತಮಸ್ತಿ ಏಮೇವ ಇತೋಪಿ ಏಕಂ ತೃತೀಯಮಪಿ ಉದಾಹರಣಮಸ್ತಿ ಅಗ್ರಿಮ ಮಧ್ಯೆ ಅನ್ಯ ಕೋಪಿ ವಿಚಾರ ಆಗತ್ರ ಅಚೇತನ ವ್ಯವಹಾರ ಅಸ್ತಿ ತತ್ರ ಕೇಚನ ವದಂತಿ ಕಥಂ ಚೇತನ ಚೇತನೆಯ ಮಿಶ್ರಣ ಕುತ್ರ ಅಸ್ತಿ ಪೃಚ್ಛತಿ ಚೇತ್ ತಾನ್ ಉದಾಹರಣಾನಿ ಸಂತಿ ಉದಾಹರಣ ದರ್ಶನ